इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचको नरेन्द्रदत्तः सेमवालः। आदौ मुख्य वार्ताः। भारत साउथ कोरिया देशौ परस्परं सहयोगं सुदृढीकृतवन्तौ। प्रधानमन्त्री नरेन्द्र मोदी राष्ट्रपति ली जे म्योंग च परस्परं सन्धिपत्राणि हस्ताक्षरितवन्तौ। निर्वाचनायोगेन निर्वाचनक्षेत्रे मतदान समाप्तिपर्यन्तं अष्टचत्वारिंशत् होरास् मध्य विक्रये प्रतिबन्धः निर्धारितः अस्ति। मई मासस्य चतुर्दिनांके गणना दिवसे अपि मतदान सम्बद्धेषु राज्येषु केन्द्रशासित प्रदेशेषु च शुष्क दिवस इति घोषितः अस्ति। जम्मू कश्मीरस्य उधमपुर मण्डले बसयान दुर्घटनायां न्यूनातिन्यूनम् एकविंशति जनाः मृताः। राष्ट्रपतिः द्रौपदी मुर्मुवर्या प्रधानमन्त्री नरेन्द्र मोदी च अस्यां दुर्घटनायां शोकं प्रकटितवन्तौ। पश्चिम बंगाल तमिलनाडु राज्ययोः विधानसभा निर्वाचनाय विविध दल नेतारः प्रचाराभियाने रताः सन्ति। अपि च भारतीय विशिष्ट पहचान प्राधिकरण UIDAI इत्यत्र शत संस्थानानि OVSE इति करगद रहितं सत्यापन सौविध्यम् अधिगन्तुं स्वकीयं पंजीकरणं कृतवन्ति। अथ वार्ताः विस्तरेण। भारत दक्षिण कोरिया देशौ अद्य क्रीडायाः सांस्कृतिक सृजनात्मक उद्योगाणां MSME इत्येतेषां औद्योगिक सहकार समित्याः स्थापनार्थं च चतुर्षु सन्धिपत्रेषु हस्ताक्षरं कृतवन्तौ। नवदिल्ल्यां प्रधानमन्त्रिणा नरेन्द्र मोदिना दक्षिण कोरिया देशस्य राष्ट्रपतिना ली जे म्योंग इत्यनेन सह वार्तानन्तरं एतानि सन्धिपत्राणि अन्तिमरूपं प्राप्तानि। भारत कोरिया डिजिटल ब्रिज इत्यस्य उद्घाटनेन सह CEPA व्यापार सन्धेः उन्नतीकरणाय संयुक्त घोषणा अपि प्रावर्तिता। प्रधानमन्त्री नरेन्द्र मोदी अवदत् यत् एतत् सहभागित्वं AI सेमीकंडक्टर्स तांत्रिक क्षेत्रेषु गहन संयोगेन सह शान्तिं स्थिरतां च प्रवर्धयिष्यति। उभय देशयोः द्विपक्षीयं व्यापारं त्रिंशदुत्तर द्विसहस्रतमाब्दं यावत् $27 बिलियन मिततः $50 बिलियन डॉलर पर्यन्तं वर्धयितुं लक्ष्यम् अस्ति। राष्ट्रपतिः ली वर्या भारतं ग्लोबल साउथ इत्यस्य नेता इति वर्णितवान् तथा च रक्षायां AI इत्यस्मिन् नौकानिर्माणे च सहयोगं प्रार्थयत्। उभौ नेतारो मध्यपूर्वदेशे शान्तेः महत्वम् अपि अधोरेखितवन्तः। निर्वाचनायोगेन कस्मिन्नपि निर्वाचनक्षेत्रे मतदान समाप्तिपर्यन्तं अष्टचत्वारिंशत् होरास् मध्य विक्रये प्रतिबन्धः निर्धारितः अस्ति, यस्मिन्नुक्तमस्ति यत् अस्मिन् काले भोजनालयेषु आपणेषु अथवा कस्मिन्नपि सार्वजनिक निजस्थानेषु मद्यस्य विक्रयणं वितरणं वा न भविष्यति। आयोगेन मई मासस्य चतुर्दिनांके गणना दिवसे अपि मतदान सम्बद्धेषु राज्येषु केन्द्रशासित प्रदेशेषु च शुष्क दिवसः इति घोषितः अस्ति, तथा च व्यक्तिद्वारा मद्यसञ्चयस्य प्रतिबन्धः भविष्यति। अनुज्ञापत्ररहित परिसरेषु उत्पाद शुल्क नियमाः च कठोरतया प्रवर्तिताः भविष्यन्ति इति सूचितम्। तमिलनाडु राज्ये मुख्य निर्वाचनाधिकारी अर्चना पटनायकः इत्येषा श्वः सायंकालात् निर्वाचन समाप्तिपर्यन्तं प्रभाविनः नव नियमान् घोषितवती, येषु सामाजिक माध्यमानां विद्युन्मान सम्प्रेषणस्य सार्वजनिक नाट्य प्रदर्शनानां च माध्यमेन निर्वाचन सम्बद्ध विषयवस्तूनां प्रदर्शने प्रतिबन्धः अपि अन्तर्भवति। बहिक्षेत्राणां राजनैतिक नेतृभिः पक्षकार्यकर्तृभिः च श्वः सायं षड्वादने निर्गन्तव्यं, ततः परं स्टार प्रचारकेभ्यः अनुमतिः अपि निषिद्धा भविष्यन्ति। मतदानदिने प्रत्याशिनः केवलं एकं वाहनं निर्वाचन प्रतिनिधेः कार्यकर्तृणां च एकं वाहनं च अनुमन्यते, यत्र रिटर्निंग अधिकारी इत्यनेन अनुमतिः प्रदास्यते। मतदातृणां परिवहनार्थं वाहनानाम् उपयोगाय कः अपि प्रत्याशी तस्य प्रतिनिधिः वा न अनुमन्यते। जम्मू कश्मीरस्य उधमपुर मण्डले बसयान दुर्घटनायां न्यूनातिन्यूनम् एकविंशति जनाः मृताः, अन्ये च अनेके व्रणिताः अभवन्। रामनगर उधमपुर मार्गे जल्लोल ग्रामं निकषा एषा दुर्घटना अभवत् इति अधिकारिणः अवदन्। राष्ट्रपतिः द्रौपदी मुर्मुवर्या प्रधानमन्त्री नरेन्द्र मोदी च अस्यां दुर्घटनायां शोकं प्रकटितवन्तौ। सामाजिक संजालीय सन्देशे अपि तौ व्रणितानां शीघ्र स्वास्थ्यलाभाय प्रार्थितवन्तौ। प्रधानमन्त्रिणा नरेन्द्र मोदिना प्रधानमन्त्री साहाय्योद्धार कोषात् मृतकेभ्यः 2 लक्ष रूप्यकाणां, व्रणितेभ्यः च 50,000 रूप्यकाणां साहाय्यराशि उद्घुष्टा। जम्मूकश्मीरस्य उपराज्यपालः मनोजसिंहः घटनायाः विषये दुःखं प्रकटितवान्। सामाजिकमाध्यमे श्रीसिंहवर्यः मृतानां परिवारान् प्रति गंभीरं शोकं प्रकटितवान् तथा च व्रणिताः शीघ्रं स्वस्थाः भवेयुः इति प्रार्थयत्। श्रीसिंहवर्यः अवदत् यत् सः जनपद प्रशासनम् आरक्षकान् राज्य विपद प्रतिक्रियाबलं स्वास्थ्य विभागम् इत्येतान् प्रभावितजनान् सर्वान् सम्भावान् साहाय्यं दातुं निर्देशं दत्तवान्। प्रधानमन्त्री कार्यालयस्य केन्द्रीय राज्यमन्त्री तथा कठुआ उधमपुरतः लोकसभायाः सदस्यः जितेन्द्र सिंहः अवदत् यत् तत्क्षणमेव उद्धार कार्यस्य आरम्भः कृतः, जनानां कृते सर्वं सम्भवं साहाय्यमपि प्रदत्तमस्ति। संस्कृतवार्तायाः संस्करणम् इदम् इदानीम् आकाशवाणीतः प्रसार्यते। सममेव अयं कार्यक्रमः आकाशवाण्याः अन्तर्जालपटले www.newsonair.gov.in इत्यत्र अथ न्यूज ऑन एआईआर इति चलदूरभाषीय तन्त्रांशे अपि उपलब्धो भविष्यति। पश्चिम बंगाल तमिलनाडु राज्ययोः विधानसभा निर्वाचनाय प्रचाराभियानं तीव्रतरम् अभवत्। विभिन्न राजनीतिक दलानां वरिष्ठ नेतारः मतदानपूर्वं अन्तिमेषु दिनेषु जनसभानां जनयात्राणां च एकां श्रृंखलाम् आयोजयन्ति। भाजपेति दलस्य नेता केन्द्रीयमन्त्री च जेपी नड्डा इत्येषः बांकुड़ा जनपदस्य कोतुलपुर क्षेत्रे एकां जनसभां कुर्वन्ति। दलस्य नेता राजनाथसिंहः वीरभूम क्षेत्रे एकां निर्वाचन जनसभां सम्बोधितवान्। अपरत्र भाजपा दलस्य राष्ट्रियाध्यक्षः नितिन नवीनः इत्यनेन पूर्वी मिदनापुर क्षेत्रे एका जनयात्रा कृता। तृणमूल कांग्रेस इति दलस्य नेता अभिषेक बनर्जी इत्यसौ बांकुरा जनपदस्य रानीबांध क्षेत्रे एकां जनसभां सम्बोधयति। तमिलनाडु राज्ये तेलुगुदेशम पार्टीति दलस्य नेता आन्ध्रप्रदेशस्य मुख्यमन्त्री च चन्द्रबाबू नायडू इत्यसौ केन्द्रीय नागरिक उड्डयन मन्त्री टीडीपी इति दलस्य नेता किंजरापू राममोहन नायडू इत्यनेन सह सम्मिल्य कोयम्बटूर जनपदे एनडीए इति ग्रन्थिबन्धनाय प्रचारम् अकरोत्। कांग्रेस दलस्य नेता राहुल गांधी राज्ये अनेकेषु क्षेत्रेषु निर्वाचनसभाः समबोधयत्। टीवीके इत्यस्य अध्यक्ष अभिनेता च विजयः इत्यनेन पोनेरी विधानसभा क्षेत्रस्य पंचट्टी क्षेत्रे प्रचारः कृतः। भारतीय विशिष्ट पहचान प्राधिकरण यूआईडीएआई इत्यनेन एका विशिष्टा उपलब्धि अधिगतास्ति। अस्य प्रारम्भानन्तरं मासत्रयाभ्यन्तरं एव शत संस्थानानि ओवीएसई इति सत्यापन सौविध्यम् अधिगन्तुं स्वकीयं पञ्जीकरणं कृतवन्ति। अनेन सुरक्षितं सहमत्याधारितं करगदरहितं च आधार इत्यस्य सत्यापनं वर्धिष्यते। इलेक्ट्रॉनिक्स सूचना प्रौद्योगिकी मन्त्रालयः प्रावोचत् यत् एतेषु संस्थानेषु सर्वकारीयाः विभागाः फिनटेक संस्थानानि शिक्षाक्षेत्राणि अन्यानि च विविधानि संस्थानानि सम्मिलितानि सन्ति। प्रधानमन्त्री नरेन्द्रमोदी श्वः राजस्थानस्य बालोत्तरास्थे पचपदरा क्षेत्रे देशस्य प्रथमं ग्रीन फील्ड इंटीग्रेटेड रिफाइनरी सह पेट्रोकेमिकल कॉम्प्लेक्स इत्येतत् राष्ट्राय समर्पयिष्यति। 9 मिलियन मीट्रिक टन प्रतिवर्षस्य क्षमतायाः अस्य रिफाइनरी सह पेट्रोकेमिकल कॉम्प्लेक्स इत्यस्य स्थापना 970 कोटि रूप्यकाणां निवेशेन कृतास्ति। अनया परियोजनया देशस्य ऊर्जा सुरक्षां सुदृढं कर्तुं पेट्रोकेमिकल क्षेत्रे आत्मनिर्भरतां वर्धयितुं औद्योगिक विकासं च वर्धयितुं गतिः प्रदास्यते इति आशा वर्तते। अनया आजीविकायाः विविधानि साधनानि अपि समुत्पत्स्यन्ति येन सामाजिक आर्थिक क्षेत्रेषु अपि विकासाय योगदानं प्रदास्यते। अस्मिन् अवसरे प्रधानमन्त्री नरेन्द्रमोदी एकां जनसभाम् अपि सम्बोधयिष्यति। सर्वकारः अद्य प्रोक्तवान् यत् सम्पूर्णे देशे एलपीजी इत्यस्य उपलब्धता स्थिरा वर्तते। सहैव पश्चिमेशिया क्षेत्रेषु प्रवर्तमानेन संकटेन समुत्पन्नानाम् अवरोधानाम् अनन्तरमपि वितरकाणां पार्श्वे एलपीजी इत्यस्य अनुपलब्धतायाः कीदृशी अपि सूचना न प्राप्ता। नवदिल्ल्यां सम्बोधयन्ती जीवाश्म तैल प्राकृतिक वात्येधन मन्त्रालयस्य सचिवा सुजाता शर्मा अकथयत् यत् सर्वकारः प्रभावि प्रबन्धनाय अनेकान् महत्वपूर्ण पदक्षेपान् समुत्थापयति, यथा गृहोपभोक्तृणां कृते एलपीजी इत्यस्य उत्पादन वर्धनं नगरेषु ग्रामीणक्षेत्रेषु च अस्य उपलब्धतायाः वर्धितावधि। आईपीएल इति क्रिकेट क्रीडायां गुजरात टाइटन्स दलम् अद्य अहमदाबाद नगरस्य नरेन्द्र मोदी स्टेडियम इति क्रीडांगणे मुंबई इंडियंस दलं सम्मुखीकरिष्यति। क्रीडा स्पर्धा इयं सायं 7:30 वादने भविष्यति।